अथ सप्तमोऽध्यायः प्रथमः पादः युवोरनाकौ आयनेयीनीयः फठखछघाम् प्रत्ययादीनाम् झोऽन्तः अदभ्यस्तात् आत्मनेपदेष्वनतः शीङोरुट वेत्तेर्विभाषा बहुलम् छन्दसि अतोभिसैस् बहुलम् छन्दसि नेदमदसोरकोः टाङसिङसामिनात्स्याः ङेर्यः सर्वनाम्नस्मै ङसिङ्योऽस्मास्मिनौ पूर्वादिभ्यो नवभ्यो वा जसस्षि औङ आपः नपुंसकाच्च जश्यसोऽशिः अष्टाभ्य औष् षड्भ्यो लुक् स्वमोर्नपुंसकात् अतो अड्डतरादिभ्यः पञ्चभ्यः नेतराच्छन्दसि युष्मदस्मद्भ्याम् असोऽश् ङे प्रथमयोरम् शसो न भ्यसोऽभ्यम् पञ्चम्या अत् एकवचनस्य च सामाकम् आत औणलः तुह्योस्तातङ्गाशिष्यन्यतरस्याम् विदेशतुर्वसुः समासेनै पूर्वे क्त्वोऽल्यप् क्त्वापिच्छन्दसि सुपां सुलुक् पूर्वसवर्णाच्छेयाडाड्याया जालः अमोमश लोपस्त आत्मनेपदेषु ध्वमोध्वात् यजध्वैनमिति च तस्य तात् तप्तनप्तनथनाश्च इदन्तोमसि क्त्वोयक् इष्ट्वेनमिति च स्नात्व्यादयश्च आज्यसे रसुक् अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि आमि सर्वनाम्नः सुट् त्रेस्त्रयः ह्रस्वनद्यापो नुट् षट्चतुर्भ्यश्च श्रीग्रामण्योश्छन्दसि गोः पादान्ते इदितोऽनुम् धातोः शेमुचादीनाम् मश्चिनशोर्झलि रधिजभोरचि नेट्यलिटिरधेः रभेरशब्लिटोः लभेश्च आङोयि उपात्प्रशंसायाम् उपसर्गात्खल्घयोः न सुदुर्भ्याम् केवलाभ्याम् विभाषाचिन्नमुलोः उगिदचाम् सर्वनामस्थाने धातोः युजेरसमासे नपुंसकस्य झलचः इकोचि विभक्तौ तृतीयादिषु भाषितपुंस्कम् पुंवद्गालवस्य अस्थिदधिसख्यक्ष्णामनगुदात्तः छन्दस्यपि दृश्यते ईचद्विवचने नाभ्यस्ताच्छतुः वानपुंसकस्य आच्छेनद्योर्नुम् शप्शनोर्नित्यम् सावनडुहः दृक्स्ववस्वतवसाम् छन्दसि दिव औत् पथिमत्र्युभुक्षामात् इतोत्सर्वनामस्थाने थोन्थः भस्यटेर्लोपः पुंसोऽसुं गोतोणित नलुत्तमो वा सख्युरसम्बुद्धौ अनंसौ रुदुशनस्पुरुदंसो नेहसाञ्च तृज्वत्क्रोष्टुः स्त्रियां च विभाषा तृतीयादिष्वचि चतुरनडुहोरामुदात्तः अंसम्बुद्धौ ऋत इद्धातोः उपधायाश्च उदोष्ठ्यपूर्वस्य बहुलं छन्दसि इति प्रथमः पादः।